इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। सर्वादौ भवद्भ्यः सर्वेभ्यः होलिकोत्सवस्य हार्दाः शुभाशयाः। अथ वार्ताः। वर्णोत्सवः होलिकोत्सवः देशे सम्पूर्णे ससोत्साहं सश्रद्धं च मान्यते। अयमुत्सवः शुभस्य दृढतायाः दुष्टतायाः उपरि विजयस्य सूचकत्वेन आमान्यते। वसन्तर्तोः आगमनस्य च परिचायकः अयम् उत्सवः। अस्मिन् दिने जनाः परस्परं वर्णं प्रयोजयन्ति, अभिवादनस्य च आदानप्रदानं च कुर्वन्ति। अत्रावसरे राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः जगदीप धनखड़ः च होलिकोत्सवे देशवासीनाम् अभिवादनं कृतवन्तौ। राष्ट्रपति पदासीना द्रौपदी मुर्मुः होलिकोत्सवम् अभिलक्ष्य सर्वेभ्यः नागरिकेभ्यः शुभकामनाः प्रदत्तवती। स्वसन्देशे राष्ट्रपतिः अवोचत् यत् अयम् उत्सवः हर्षम् उत्साहं च आनयति। अत्रावधौ उपराष्ट्रपतिः जगदीप धनखड़ः देशवासिभ्यः शुभकामनाः दत्त्वा उक्तवान् यत् होलिकोत्सवः वसन्तर्तोः आगमनस्य प्रतीको वर्तते। यो हि नवीनस्य शुभारम्भस्य दृक्पातस्य च प्रतीको वर्तते। प्रधानमन्त्री नरेन्द्रमोदी अपि देशवासिभ्यः स्वशुभ वचांसि समर्पितवान्। प्रत्यपादयत् च यत् अयमुत्सवः समेषां जीवने नवीनम् उत्साहम् अथ च देशवासिषु ऐक्यभावस्य वर्णं प्रबलं करिष्यति। उत्तर रेल विभागः होली पर्व समाश्रित्य यात्रिणां सुगम यात्रायै चतुश्शताधिकानि रेलयानानि प्रचालयति। उत्तर रेल मार्गस्य मुख्य जनसम्पर्काधिकारी हिमांशु शेखर उपाध्यायः सूचितवान् यत् यात्रिणां सौकर्यार्थं विस्तृता व्यवस्था सम्पादिता। असौ प्रत्यपादयत् यत् राष्ट्रिय राजधान्यां नवदिल्ली आनन्दविहार हजरत निजामुद्दीन रेलवे स्थानकेषु यात्रिणां सुगम सुरक्षा व्यवस्था नियन्त्रणकक्षाः च प्रतीक्षालयाः च निर्मिताः सन्ति। विश्व दृश्य श्रव्य मनोरंजन शिखर सम्मेलनात् 25-अधिक-2000 वर्षात् पूर्वं भारत प्रशासनं ह्यः नवदिल्ल्याः सुषमा स्वराज भवने एकेन वैश्विक समुदायेन सह सहभागं कृतवत्। सूचना प्रसारण मन्त्रालयेन आयोजिते एतस्मिन् कार्यक्रमे विविध प्रशासनानां प्रतिनिधित्वं सम्पादयता वैश्विक संचार संवादेन सहभागिता निर्व्यूढा। कार्यक्रमे सम्भाषमाणः सूचना प्रसारण मन्त्री अश्विनी वैष्णवः उक्तवान् यत् वेब्स इति मञ्चः जीवनस्य समग्र क्षेत्राणां नवयुगस्य निर्मातृभ्यः उच्च मूल्ययुतां सामग्रीं निर्मातुं परिकल्पितो वर्तते। केन्द्रीय माध्यमिक शिक्षा मण्डलेन विज्ञापितं यत् द्वादश्याः कक्षायाः या परीक्षा श्वः निर्धारितासीत् सैव देशस्य विविध भागेषु होलिकोत्सवस्य विस्तारो भवति चेदपि ख्यापित योजनानुसारमेव आयोजयिष्यति। मण्डलेन ख्यापितं यत् हिन्दी विषयस्य ऐच्छिक हिन्दी विषयस्य च परीक्षा निर्धारित तिथौ आयोज्यते इति। केन्द्रीय विधि न्याय मन्त्री अर्जुन राम मेघवालः पुनरावर्तितवान् यत् राष्ट्रिय शिक्षा नीतौ राज्यानां मातृभाषाणां संविधानस्य 8 अनुसूच्यां मान्यतां प्राप्तानां भाषाणां च प्रचारस्य उपबन्धाः सन्ति निहिताः। गतरात्रौ पुदुचेरी नगरे पद्मश्री पुरस्कार विजेतुः तथा च ताविलवादकस्य दशनमूर्ति वर्यस्य सम्मान कार्यक्रमे एषः मन्त्री सम्बोधयन् आसीत्। अपि च क्रीडा वार्तासु। बैडमिंटन क्रीडायां भारतस्य ट्रिसा जॉली गायत्री गोपीचन्द इत्येते इंग्लैंड नगरे बर्मिंघम स्थले ऑल इंडिया इंग्लैंड ओपन चैंपियनशिप इत्येतस्याः प्रतिस्पर्धायाः महिला युगलस्य प्रागुपान्त्य चक्रे प्रविष्टवत्यौ। विमेन्स प्रीमियर लीग इत्येतस्यां मालिकायां मुंबई इंडियंस दलं निर्णायक चक्रके द्वन्द्वे प्रविष्टम् इति वार्ताः।